अथ श्रीमद्भागवते तृतीयस्कन्धे द्वात्रिंशोऽध्यायः श्रीभगवानुवाच कर्मणा दैवतन्त्रेण जन्तुर्देहोपपत्तये स्त्रिया प्रविष्ट उदरं पुंसो रेतकणाश्रयः सलिलं त्रेकरात्रेण पञ्चरात्रेण बुद्बुदं दशाहेन तु कर्कन्धुः पेष्यण्डं वा ततः परम् मासेन तु विरोध्वाभ्यां बाह्वङ्घ्याद्यङ्घ्रविग्रहः न खलोम अस्थिचर्माणि लिङ्गच्छिद्रोद्भवस्त्रिभिः चतुर्भिर्धातवः सप्त पञ्चभिक्षुत्रुद्भवः षड्भिर्जरायुणा वीतः कुक्षौ भ्राम्यति दक्षिणे सप्तमे च कर्माणि गतानि स्मरते ऋषिः जगत्यां यानि देवस्य मायया बन्धमात्मनः मातुर्जग्धान् अपानाद्यैरधत्यातुरसम्मतः आस्ते विन्मूत्रयोर्गत्ते सजन्तुर्जन्तुसम्भवे कृमिभिक्षतकण्ड्वङ्ग सौकुमार्यात् प्रतिक्षणं मूर्च्छाम् आप्नोत्युरुक्लेशस्तत्रत्यै क्षुदितैर्मुहुः कटुतीक्ष्णोष्णलवणक्षाराम्लादिभिः उद्वणैः मातृभुक्तैरुपस्पृष्टः सर्वाङ्गोत्थितवेदनः उल्बेन संवृतस्तस्मिन् आन्त्रैश्च बहिरावृतः आस्ते कृत्वा शिरः कुक्षौ भुग्नपृष्ठशिरोधरः अकल्य स्वाङ्गतिष्ठ्यायां शकुन्त इव पञ्जरे तत्र लब्धस्मृतिर् दैवात् कर्मजन्मशतोद्भवं स्मरन् दीर्घम् अनुश्वासं गर्भे किं नाम विन्दते आरम्भसप्तमन् मासाल्लब्ध बोधोऽतिवेपितः नैकत्रास्ते सूतिवातैर्विष्टा भूरिव सोदरः नाथमानो ऋषिभीतः सप्त वद्भिः कृताञ्जलिः सवीति तं विक्लवया वाच येनोदरेऽर्पितः इव उवाच तस्योपसन्नम् अवितुर्जगदाक्षियात्तलीलातनोभुर्भुवि रसच्चरणारविन्दं सोऽहं व्रजामि शरणं न कुतो भयं मे योने दृशी गतिरदश्रयसदोऽनुरूपा यस्त्वत्र बद्ध इव कर्म आवृतात्मा भूतेन्द्रियाशयम् अयम् ऐ इव लम्ब्य मायाम् आस्ते विशुद्धम् अविकारम् अखण्डबोधमातप्यमानं हृदये वसितां तमेऽपि यःपञ्चभूतरचिते रहितशरीरे छन्नो यतेन्द्रियगुणार्थविदात्मकोऽहं तेनाविकुण्ठम् अहिमानं ऋषिं तमेनं वन्दे परं प्रकृतिभूरुषयो पुमांसम् यन्मायोरुगणकर्म निबन्धनेऽस्मिन् सांसारिके पतितरं स्तदतिसमेन नष्टस्मृति पुनरयं प्रोणीतलोको युक्त्या कया महदनुग्रहमन्तरेण ज्ञानं यदेतदधात् कथमस्व देवस्त्रैकालिलं कं स्थिरचरेष्वनुवर्तितांशः तं जीवकर्म पदवीम् अनुवर्तमानास्तापत्रयोपशमनाय वयं भजेम देह्यन्यदेहविवरे जठराग्निनाश्रु मन्मूत्रकूपपतितो भृशतप्तदेहः इच्छन्नितो विवसितुं गणयन् समासान् निर्वास्यते कृपणधीर्भवता गतानु एनेदृशीं मतिमसौ दशमास्यैष सङ्ग्राहित पुरुदयेन भवादृशेन स्वेनैव तुष्यतु कुतेन स दीननाथ को नाम तत्प्रतिविनाञ्जलिमस्य कुर्यात् पश्यत्ययं धिषणया ननु सप्तवह्भिः शरीरभेदमशरीरवदस्य देहे यद्धुत्तया सतमहं पुरुषं पुराणं पश्ये बहिर्हृदि च दैत्यमिव प्रतीतं सोऽहं वसन्नपि विभो बहुदुःखवासं गर्भान्ननिर्जिगमीषे बहिरन्धकूपे यत्रोपयातमुपहर्पति देवमाया मिथ्यामतिर्यदनुसंस्मृतिचक्रमेतत् तस्मादहं विगतविक्लबुद्धरिष्य आत्मानमाशुतमसः सुहृदात्मनैव भूयो यथा व्यसनमेतदनेकरन्ध्रं मां मे भविष्यद् उपसादित विष्णुपादः श्रीभगवानुवाच एवं गुदमतिं गर्भे दशमास्यं सपद्धृषिं सद्यक्षिपत्यवत् अवाचीनं प्रसूत्यै सूतिमारुतः तेनोपसृष्टसहसा कृत्वा वा क्षिर आतुरः निष्क्रामति कुच्छ्रेण निरुश्वासो गतस्मृतिः पतितो भुव्यवश्रुं मूत्रे विष्टा भूरिवचेष्टते रोरूयति गतज्ञानो विपरीतां गतिं गतः परच्छन्दं न विदुषा पुष्यमाणोदनेन सह अनभिप्रेतमापन्नः प्रत्याख्यातुमनीश्वरः शैतोषुचिर्पर्यङ्गे जन्तुः स्वेदजा दूषिते नेश कण्डूयनेङ्गानाम् आसनोत्थानचेष्टने तुदन्त्यमात्वत्सं दंशा मशका मत्कुणादयः रुदन्तं विगतज्ञानं कुमयः कुमिकं यथा इत्येव शैशवं भुक्त्वा दुःखं पौगण्डमेव च अलब्धाभीषीप्सितो ज्ञानादि अन्मन्युः सुचार्पितः सह देहेन मानेन वर्धमानेन मन्युना करोति विग्रहं कामी कामिष्वन्ताय चात्मनः भूतैः पञ्चभिरारब्धे देहे देह्यबुधौ सकृत् असकृत् अहं ममेत्यसद्ग्राहां करोति उमतिर्मतिं तदर्थं कुरुते कर्म यद्बद्धो याति संस्मृतिं येन यातीदृशं क्लेशम् अविद्या कर्मबन्धनं यद्यसद्धीपति पुनः शिष्णोदरकृतोद्यमैः आस्थितो रमते जन्तुस्तमो विशति पूर्ववत् सत्यं शौचं दया मौनं बुद्धि श्रीर्यशक्षमा शमोदमो भगश्चेति यत्सङ्गात् यातिसंशयं तेष्वशान्तेषु मूढेषु खण्डितात्म अवसायिषु सङ्गं न कुर्यात् शोच्येषु योषित् क्रीडा मृगेषु च न तथास्य भवेन्मोहो बन्धश्चान्यप्रसङ्गतः योषित् सङ्गाद् यथा पुंसां यथा तत्सङ्गिसङ्गतः प्रजापतिस्वां दुहितरं दृष्ट्वा तद्रूपधर्षितः रोहिद्भूतां सोन्वदावत् ऋष्यरूपी हतः त्रयः हतत्रपः तत्सृष्टिसृष्टसृष्टेषु कोन्वखण्डितधीः पुमान् ऋषिं नारायणं ऋते योषिन् मन्येह मायया बलं मे पश्य मायाया स्त्रीं मय्या जयिनो दिशाम् या करोति निजायत्तान् भूविजृम्भेण केवलम् सङ्गम् न कुर्यात्रमदा सुजातु योगस्य पारम् परमारुरुक्षः मत्सेवया प्रतिलब्धात्मलो लाभो वदन्ति याम् निरयवारमस्य योपयाति शनैर्माया योषिद्देव विनिर्मिता तानीक्षेतात्मनो मृत्युम् त्वणैकूपमिवावृतम् याम् मन्यते पतिर्मोहान् मन्मायाम् नृषभायतीम् ते त्वम् स्त्रीसङ्गतप्राप्ताम् वित्तापत्यगृहप्रदाम् तामात्मनो विदानीयात् भूत्यापत्या गृहात्मकम् दैवोपासादितम् मृत्युम् गायनम् यथा देहेन दीवभूतेन लोकाल्लोकमनुव्रजन् भुञ्जान एव कर्माणि करोत्या विरतम् पुमान् जीवो यस्यानुगो देहो भूतेन्द्रियमनोमयः तन्निरोधोऽस्य मरणम् आविर्भावस्तु सम्भवः द्रव्योपलब्धिस्थानस्य द्रव्येक्षा योग्यता यदा तत्पञ्चत्वमहम्मानाद् उत्पत्तिर्द्रव्यदर्शनम् यथाक्ष्णोद्द्रव्यवयवदर्शनायोग्यता यदा तदेव चक्षुषो द्रष्टो द्रष्टुत्वं योग्यतानयोः पुंसो यथैवेन्द्रियाणि विन्दन्ति स्वगतं परं सुखं दुःखं नान्यगतं तथेषां शाः पृथक् कलाः आत्मनः केवलं ज्ञानमत्तो देहाद्यसंज्ञिनः सुखदुःखादयो भावा न देहस्य नगात्मनः तस्मान्न कार्यस्य सन्त्रासो न कार्पण्यं न सम्भ्रमः बुद्ध्वा जीवगतिं धीरो मुक्तसङ्गाश्चरेरिह सम्यग् दर्शनया बुद्ध्या योगवैराग्ययुक्तया माया विरचिते लोके चरेर्यस्य कळेवरम् श्रीमद्भागवते प्रियस्कन्धे त्रिंशोऽध्यायः श्रीकृष्णार्पणमस्तु।